अद्य समासप्रकरणस्य पीठिकायाम् द्वितीयः भागः येनाक्षरसमम् नाम अधिगम्यमहेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तिः परिभाव्यत वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते। ह्यः समासप्रकरणम् आरब्धम्। ह्यः अधीतानाम् अंशानाम् किञ्चिदिव पुनरावर्तनम् कुर्मः। आरब्धम् वृत्तिविग्रहयोः अध्ययनम्। वृत्तिः नाम का, विग्रहः नाम कः इति प्रश्नः। समुदायशक्त्या विशिष्ट एकार्थबोधिका वृत्तिः। यत्र समुदायेन अथवा वृत्त्या विशिष्टः कश्चन अर्थः भासते सा वृत्तिः इत्युच्यते। पञ्चवृत्तयः सन्ति संस्कृते अथवा व्याकरणे। कृद्वृत्तिः, तद्धितवृत्तिः, समासवृत्तिः, एकशेषवृत्तिः, सनाद्यन्तधातुवृत्तिः इति। हरि ओम्। पञ्चधा वृत्तयः सन्ति। तत्र वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति उच्यते। वृत्तेः अर्थं प्रदर्शयितुं यद्वाक्यम् उपयुज्यते सः विग्रहः। समासेऽपि भवति, तद्धितेऽपि भवति, कृदादिष्वपि, सर्वासु वृत्तिषु विग्रहवाक्यमपि भवति। समासः नाम कः? अनेकस्य पदस्य एकपदीभवनं समासः। वेर् मेनि वर्ड्स् आर् मोर् देन् वन् वर्ड् दे जायिन् टुगेदर् टु फार्म् अ सिङ्गल् वर्ड् इट् इस् काल्ड् अ समास। समासः समासे पदद्वयं भवति सामान्यतः, पूर्वपदम् उत्तरपदम्। पूर्वत्र समासे समस्तपदे पूर्वत्र यच्छूयते तत् पूर्वपदम्, उत्तरत्र यच्छूयते तदुत्तरपदम्। समासस्य प्रक्रियायां किं भवति चेत् आदौ पदद्वयं विद्यते, पूर्वपदम् उत्तरपदं। सा सीतायाः पतिः इत्युक्ते पदद्वयम् अस्ति। तत्र द्वयोः पदयोः विभक्तिः लुप्यते समासे क्रियमाणे। The vibhakti of both words get deleted. So you have simple pratiparikas. So you have a pratiparika from the Purvapada, which is like say Sita, and a pratiparika from the Uttarapada, which is Pati. So when you have Sita and Pati, the pratiparika is joined together to form the Samastapada called Sita Pati. And to this word, you add the vibhakti pratyas again. पुनश्च समासे केचन नियमाः सन्ति इति ज्ञातम्। अर्थात् सुवन्तानामेव समासः भवति। एते सर्वे साधारणनियमाः, सर्वत्र अपवादाः भवन्त्येव। सुवन्तानामेव समासो भवति, न तु तिङन्तानाम् अथवा सुवन्ततिङन्तयोः। किञ्च द्वयोर्द्वयोरेव युगपत् समासः। अट् अ टैम् यु जायिन् टु वर्ड्स् ओन्लि अण्ड् नाट् मोर् देन् टु इति कश्चन नियमः। समर्थानाम् अर्थात् परस्पर अन्वितयोरेव पदयोः समासः। ओन्ली वेन् द वर्ड्स् आर् रिलेटेड् टु यु ईच् अदर् यु केन् जायिन् देम् इन् अ समास, अण्ड् नाट् वेन् दे आर् अन्रिलेटेड्। सो कीपिङ्ग् आल् दिस् इन् मैण्ड् वेन् यु आर् स्टडीङ्ग् समासप्रकरणं, देर् आर् अ फ्यू, देर् आर् डिफ्रेण्ट् कम्पोनेण्ट्स् विच् यु विल् हाव् टु लुक् एट्। द फस्ट् concept or the thing to be learnt is samasa vidhayakam shastram athava sutram. Kena sutrena samasah bhavati, kesham padanam samasah bhavati iti sarvam jnatavyam. Purva pada nirnayah, padeshu samasyamaneshu kim purva padam bhavet, which should be the purva pada and which should be the uttara pada. When given a particular set of words, you should be able to tell which should be the Purvapada and which should be the Uttarapada. Purvapade Uttarapade se jnate. Purvapade ke visheshaha bhavanti, Uttarapade ke visheshaha bhavanti. What? what will be the special karyas or specific changes in Purva Pada and what will be the specific changes in the Uttara Pada. After we learn this, there are some other karyas like sandhi which will happen between Purva Pada and Uttara Pada, which you should look at. We will not study that separately in the Samasa Prakarana, but that is certainly a part of making the Samasas. And then Samasta Padasya Linga Nirnayaha. How will you decide what is the linga of the Samasta Pada? Samastam Padam Kasmin Linge Bhavet. Iti Nirnayatum Kechana Niyamaha Santi. So after you do all this, you end up with one Samasta Pada. Tasmad Vibhakti Pratthi Karya. You have to add a particular Vibhakti to that Samasta Pada and see what is the final form we end up with. So all these are different areas to concentrate on while learning the Samasas. Okay. So this was what we did yesterday. Is there any question? स्वपदविग्रहः अस्वपदविग्रहः इति अग्रिमः भागः. इन् विग्रहवाक्य देर् आर् टु कैण्ड्स्. एक्स्क्यूस् मी फर् जस्ट् अ मोमेण्ट्. विग्रहवाक्ये समासस्य विग्रहः विशिष्य समासे विग्रहवाक्यं द्वेधा भवितुम् अर्हति. स्वपदविग्रहः तथैव अस्वपदविग्रहः इति. स्वपदविग्रहः नाम कः इति चेत् समासस्य अर्थः विग्रहवाक्येन वर्ण्यते इति ज्ञातम्. यदा सः अर्थः समासघटकैः पदैरेव वर्ण्यते सः स्वपदविग्रहः इति उच्यते. सो द विग्रहवाक्य कण्टेन्स् exactly the same words which are there in the samasa. So whatever words are there in the samasa, you are using the same words, probably with vibhaktis or with some accessory words to explain the meaning of the samasa. This is called swapada vigraha. Samasa ghataka pada sahitam vakyam. Samasasya ghatakani yani padani tat sahitam vakyam swapada vigraha. For example, when we do something like Sitayaha Patihi, Sitapatihi. Sitapatihi iti samasaha, yatra padadvayam vidyate. Sita iti ekam padam, pati iti ekam padam. Tabhyam eva padabhyam vigrahaha api varnitaha, Sitayaha Patihi. Ataha ayam swapada vigraha. Similarly, you have even in Bahuvrihi, Pitam ambaram, yasya saha pita ambaraha. Pita ambara iti samase, ये पदे श्रूयेते ताभ्यामेव पदाभ्याम विग्रहः अपि कल्पितः. इट् इस् द सेम् वर्ड्स्, यु आर् जस्ट् एडिङ्ग् समथिङ्ग् टु क्लारिफै द मीनिङ्ग्. इन् आल् सच् केसस् इट् इस् काल्ड् स्वपद विग्रह. वेरस् देर् आर् सम् केसस् वेर् अस्वपद विग्रहः इति उच्यते. समासस्य अर्थः समासघटकपदानि विहाय पदान्तरैः वर्ण्यते. सो द meaning of a samasa, the vigraha vakya, will not contain all words from the samasa. Okay? So samasa will have different words and the vigraha vakya will have different words. Samasa ghataka pada rahitam vakyam. Samasa ghatakani yani padani taihi rahitam. Not completely different, One of the words will be the same and generally the other word is different. This is called Asvapada Vigraha. Okay. For example, when you have something like Krishnasya Samipam, Upakrishnam iti samasaha, Upakrishnam iti abhihi bhavaha, Upakrishnam ityasya arthaha varnyate Krishnasya Samipam, near Krishna. Okay. Idanim upa iti padam samase shruyate, samasa ghatakam padam, kintu vigraha vakya nasti. You do not have the word upa in the vigraha vakya. Instead of that, to explain the meaning of upa, we are using some other word which is called samipa. Okay. To explain the meaning of upa, you are using a different word. And this is called asvapada vigraha, where you have vigraha vakya which is different from the words of the samasa. So, krishnasya samipam upakrishnam. Similarly, when you take an upapada samasa, kumbham karoti iti kumbhakaraha. Samase kumbha iti ekam padamasti, kara iti aparam padamasti. Whereas, if you take the vigraha vakya, you have kumbham karoti. The word kara is not there in the vigraha vakya. So all such cases are called as asvapada vigraha. So if the vigraha vakya contains the same words as the samasa, it is called svapada vigraha. And if the vigraha vakya is different, or it contains a different word, it is called asvapada vigraha. So we'll try for some time without the screen sharing and see if the echo problem goes away. So if this is better, at the end of the class we can take a call on whether to use screen sharing or not. So today I think, I'll send the notes, so maybe we can all use the notes. So moving on to the next part, samasa bhedaha. Samasaha katham vibhajyate. How are we dividing samasas? In samasa, basically there are two kinds. Okay. Kevala samasaha, vishesha samasaha. Vishesha samasaha nama yatra samasasya kinsit vishishtam nama vartate. So you have particular classes of samasas. Like say you say tatpurusha samasa, bahuvrihi samasaha, dvandva samasaha. Iti vishishtena namadheyena yatra samasaha abhijnayate, tatra vishesha samasaha iti uchyate. Etadvihaya kejana samasaha santi yatra kimapi nama nasti. It does not have a specific name. It is just samasa. Purvam bhutaha bhutapurvaha iti asti. Bhutapurvaha iti padam, that which was former ityarthe or earlier one ityarthe. Bhutapurvaha iti padam asti. Purvam bhutaha bhutapurvaha iti uchyate. This does not belong to any particular class of samasas. It is just a samasa. There is no specific name. It is not Satpurusha, not Bahuvrihi, not Abhibhava, nothing. Okay. And such samasas are called as Kevala samasas. Whereas those which are divided into a particular class or named specifically are called Vishesha samasas. So Kevala samasas are very rare. Bahu nyuna samkhyayameva bhavanti. There are a very few specific cases where there is Kevala samasa. Prayana Vishesha samasaha eva bhavati. Tatrapi vishesha samase chaturtha bhedaha pradarshyate. There are four kinds of vishesha, four classes of vishesha samasas. Prathamaha bhavati avyayi bhavaha, tatpurushaha, bahuvrihihi, dvandvaha. These are the four main classes of samasas. Four and only four. These are the only major categories which Panini has made. Punaha eteshu sarveshu prabhedaha bhavanti. Each of them has subdivisions. Abhivhava samase arthamanusritya trayastrimshad bhedaha santi. 33 different kinds. I mean each in a different sense. Okay. Tatpurusha samase samanya tatpurushaha ityasti. Samanya tatpurusha ityukte dvitiyataha arabhya saptami paryantam. Dvitiya tatpurushaha, tritiya tatpurushaha, ityadi saptami tatpurusha paryantam yaduchyate. Tat sarvam samanya tatpurushaha ityasti. Tataha karmadharayaha. कर्मधारयः अपि तत्पुरुषस्यैव प्रभेदः. इट् इस् अ कैण्ड् आफ् तत्पुरुष. इट् इस् एक्चुलि प्रथमा तत्पुरुष. दट् इस् वेर् द वर्ड् इस् इन् प्रथमा विभक्ति. बोत् वर्ड्स् आर् इन् प्रथमा विभक्ति. इट् इस् काल्ड् कर्मधारय. But it is a part of Tatpurusha and it is not a separate category. Similarly, Dvikuhu, Sankhyapurvo Dvikuhu, Yatra Sankhyamasakam Padam Purvapade Bhavati, Saha Dvigu Samasaha, Sopi Tatpurushasyaiva Prabhedaha, Nai Prabhritayaha Samasaha Santi, Nai Samasaha, Upapada Samasaha, Kusamasaha, Gati Samasaha, Pradi Samasaha, Iti Pancha Santi. So they are all miscellaneous samasas, all of which come under Tatpurusha. They are all subdivisions of Tatpurusha samasa. Bahuvrihi samase punaha samanya bahuvrihi ityasti. Tatrapi dvitiyartha bahuvrihi, tritiyartha bahuvrihi ityadi uchyate. Samanyaha athava samanadhikarana bahuvrihi. Vishesha samasaha api asti bahuvrihi samase. There are many different kinds of different samasas. It's come under Bahuvrihi. Dvandva samase api bheda dvayam drishyate. Itaretara dvandvaha samahara dvandvaha cheti. Itaretara dvandvaha ramascha lakshmanascha rama lakshmanau intyadiritya. Punaha samahara dvandvaha where you have pani cha padau cha etesham samaharaha pani padam. So there are two different kinds of dvandva samase. So, thus a samasa is basically divided into kevala samasa and vishesha samasa. Vishesha samasa chaturdha bhedaha avibhava tatpurusha bhuvrihi dvandva bhedaha. Punaha atra anta prabhedaha santi. So, we'll see the bhedas in detail when we come to each samasa. Any questions? Yeah. Any other example of Kevala Samasa? Kevala Samasa is actually extremely rare. I mean, there are cases where we go for Kevala Samasa when there has been a Samasa which has been done by a sister. Sister Prayoga Vidyate, Kintu Vidhayakam Sutram Nasti, it is Sthitau Kevala Samasaha, it is Kriyate, but I don't remember any common examples of Kevala Samasa. I just look at it. There are a few. I mean, I remember having looked at at least three or four of them. I'll let you know the examples of Kevala Samasa when we come to that part in the Kaumudi. Okay. Any other questions about Samasa Bheda? Okay, so question on slide sharing. I also feel that slide sharing should not affect the eco problem at least. I mean, it could affect the speed and other things. So, it depends on your, if people would prefer to have slide sharing, we can have it because it's certainly for a better experience as if you have the visual thing. समासभेदाः दृष्टाः. समासभेदेषु इदानीं केचन प्रश्नाः उद्भवन्ति. फार् एक्साम्पल् इस् एकशेष समासः, एकशेषः इति श्रूयते सः समासस्य भेदेषु अन्तर्भवति वा इति प्रश्नः. एवम् अलुक् समासः इति श्रूयते सः समासस्य भेदः वा इत्यादयः प्रश्नाः भवन्ति. सो वन्स् वी सी दट् देर् आर् ओन्लि फोर् कैण्ड्स् आफ़् समासः, एण्ड् ऐ मीन् इट् देर् आर् ओन्लि फोर् कैण्ड्स् अदर् देन् केवल समास, एनी समास हेस् टु बि वन् आफ् दीस् फोर्, हेस् टु बिलाङ्ग् टु वन् आफ् दीस् फोर् टैप्स्. सो देर् आर् अ फ्यू अदर् कामन् टर्म्स् विच् वि एन्कौण्टर् इन् समास प्रकरण. सो लेट् अस् सी हौ दे आर् रिलेटेड् टु समासस्. उदाहरणार्थम् एकशेषः इत्यस्ति, ह्यः एव एतद्विषये किञ्चित् अधीतम्. एकशेषः समासः न, अपि तु भिन्ना वृत्तिः, वृत्तिः पञ्चधा इति उक्तं, तत्र एकशेषवृत्तिः अपि अन्तर्भवति. एकशेषः द्वन्द्वसमासस्य अपवादः, इट् इस् एन् एक्सेप्शन् टु द्वन्द्व. इन् द्वन्द्व वि जायिन् द वर्ड्स् माता च पिता च मातापितरौ इति द्वन्द्वसमासः. किन्तु तत्रैव यत्र पदद्वयम् एकपदी भवति सः समासः. बट् इन् एकशेष दट् इस् नाट् वाट् हेपन्स्. Two words are not joining together in ekashesha. What happens in ekashesha? Ekasya sheshaha. One of the words is left. That is, there are two words, but after ekashesha vritti, a single word is capable of denoting the meaning of both words. That is, one of the words is deleted. The other word gains the capacity to convey the meaning of both words. That is ekashesha. माता च पिता च इति उच्यते. सो द मीनिङ्ग् इण्टेण्डेड् टु कन्वे इस् मदर् एण्ड् फादर्. पितरौ इति एकस्मात् पदात्, फ्रम् अ सिङ्गल् वर्ड् विच् इस् पितरौ, वि गेट् द मीनिङ्ग् आफ् माता एण्ड् पिता. दिस् इस् एकशेष, वेर् वन् वर्ड् दट् इस् द वर्ड् पिता फ्रम् द सेट् इस् बीङ्ग् शेष. शेष मीन्स् टु बि लेफ्ट् औट् और् बेलन्स्. इट् इस् वन् इस् लास्ट् एण्ड् अदर् इस् लेफ्ट् रिमेनिङ्ग् इत्यर्थः. भ्राता च स्वसा च भ्रातरौ इत्यस्ति. मम भ्रातरौ इत्युक्ते इट् केन् मीन् टु ब्रदर्स्, बट् इट् केन् आल्सो मीन् मै ब्रदर् एण्ड् मै सिस्टर्. डिपेण्डिङ्ग् आन् द काण्टेक्स्ट् द वर्ड् भ्रातरौ केन् कन्वे बोत् मीनिङ्ग्स्. हंसश्च हंसी च हंसौ इति उच्यते. सो हंसौ डस् नाट् मीन् दट् बोत् हंसस् विच् यु आर् टाकिङ्ग् अबौट् हेव् टु बि मेल्. हंसः इति पुल्लिङ्गे पदं, किन्तु हंसौ इत्युक्ते इट् केन् आल्सो रेफर् टु अ पेर् आफ् हंसस्, मेल् एण्ड् अ फीमेल्. यूयं च वयं च, यू एण्ड् अस्. सो वेन् यू जायिन् टुगेदर् वी डोण्ट् से देम् सेपरेट्ली, वी डोण्ट् नीड् टु से देम् सेपरेट्ली, वी से वयम्. इट् विल् इन्क्लूड् बोत् यू एण्ड् मी. सो एकशेषः समासः न. Ekashesha will not figure anywhere in the samasa chart because it is not a samasa at all. It's a completely different entity. Aluk samasaha iti kashtana shruyate. So this word called aluk samasa. So where does this fit into samasas? This is not a separate class of samasa or a separate kind of a samasa. Okay. What is aluk samasa? We have already seen that samase krite purvottara padayohu vibhaktehe lopaha bhavati. Sitayaha patihi ityate. Sita ityasma shashti vibhakti pratyaha vidyate. Pati shabdate prathama vibhakti pratyaha vidyate. So both those pratyayas are deleted. And you have a word as sitapati as the samastapada. That is the general pratyaya. But there are some cases. Kvachit purvapadasya vibhaktehe lopaha na bhavati. The vibhakti on the purvapada is not deleted. That is, you still hear some vibhakti in the purvapada. This is called aluk samasa. Luk in Vyakaran Parihasha means lopa. Luk is a kind of deletion. So where there is no deletion of the vibhakti pratyaya, it is called aluk. Na luk aluk. So aluk samase purvapadasya vibhakte hai lopaha na bhavati. उदाहरणार्थम् आत्मनेपदम्, परस्मैपदम् इति पदद्वयं विद्यते. सो वि आर् वेरि फेमिलियर् वित् द वर्ड्स्. नौ दीस् आर् समासस्. आत्मने पदम्, परस्मै पदम्. On joining the samasa, actually it should have been atma padam or para padam. If the vibhakti were lost, it is chaturthi vibhakti. Chaturthi vibhakti hai lope sati atma padam para padam iti rupam syat kin. Atra puro pada vibhakti na lupyate. Vibhakti is not lost. That is why you hear the chaturthi form of atman, which is atmane. And you hear the chaturthi of para, which is parasmai. Okay, so all these kinds of words, okay, are called aluk samasa. Okay, you have karmani prayoga, kartari prayoga. There are many cases where in vyakarana there are the chaturthi tatpurusha and the vibhakti is not lost. So these are all aluk samasas. Similarly, yudhishthiraha it is the yudhi sthiraha iti samasaha. He who is very firm in war or in battlefield. इत्यर्थः युधि इति युधि शब्दस्य सप्तमी विभक्तिः इन वार इत्यर्थः अत्र सप्तमी विभक्तिः न लुप्तः द प्रातिपदिक इज ओनली युध बट इट इज हर्ड इन द सप्तमी विभक्ति फॉर्म एज युधि ओके सो दिस इज अगेन अ काइंड ऑफ अलुक समास सो एज यू कैन सी अलुक समास इज नॉट अ सेपरेट कैटेगरी ऑफ समास इन डिफरेंट समास तत्पुरुष समासे अपि अलुक समासः भवितुम् अर्हति बहुव्रीहि समासे अपि अलुक् अर्थात् प्रत्ययलोपः लोपस्य अभावः भवितुम् अर्हति कण्ठे कालः इत्यस्ति शिवस्य नाम कण्ठे कालम् यस्य सः ही हू हास् अ ब्लाक् मार्क् इन् हिस् थ्रोट् बिकास् आफ् द पाय्सन् कण्ठे इति सप्तमी विभक्तिः श्रूयते इन्स्टेड् आफ् कण्ठकालः इट् शुड् हाव् बीन् कण्ठकालः बट् यु हियर् द वर्ड् कण्ठे सप्तमी विभक्ति सो दिस् इस् आल्सो एन् एक्साम्पल् आफ् अलुक् समास अलुक् समासे विभक्तेः लोपः न भवति सो दट् इस् आल् इट् इस् नाट् अ सेपरेट् केटेगरी आफ् समासास् क्वश्चन् सः च वयं च इस् वयम् करेक्ट् जस्ट् लैक् युयं च वयं च इस् वयम् सः च वयं च इस् आल्सो वयम् अर्थे च वयं च इस् आल्सो वयम् सो देर् इस् अ रूल् फार् एकशेष विच् विल् स्टडि वेन् यू गो टु एकशेष Any other questions? Okay. Aluk samase lopaha karaniya eva. Na karaniya eva. So you should not delete at all. Yeah, it is a rule. You cannot have a form with this deleted. There are some cases where you should not delete it. And there are some cases where it is optional also. For example, you have vanecharaha and vanacharaha. Yeah. So, there are some cases where it is optional and some cases where it is compulsory. Okay. Vanechara is an upapada samasa. Vanecharati iti vanecharaha. So, in this case, if it is aluk, it becomes vanecharaha. If it is not aluk, I mean if the vibhakti is deleted, it becomes vanacharaha. So there are rules, separate rules for aluk samasa. Kvachit nityam aluk bhavati, kvachit vikalpena aluk bhavati. Varidharaha. Varidharati iti varidharaha. It is upapada samasa. Vanachara is an upapada samasa. Vane charati. Kumbham karoti iti yatha kumbhakaraha. Tatha vane charati iti vanacharaha. Vanacharaha. Vanachara and vanachara are both the same samasa. In one case there has been a look and in the other case there has been look of the pratyaya. Nitya samasaha. You also hear this word. Actually, all samasas are vikalpa. It is vibhashaya samasaha bhavanti. There is a sutra in samasa prakaranam called vibhasha, which we refer to as mahavibhasha. Vibhasha generally means option. So this vibhasha, the sutra which is there in the samasa prakarana, is called mahavibhasha because it's an adhikara which extends over the entire samasa prakarana. So Panini, he starts with a few samasas and then he says vibhasha. Ityukte, ittaparam ye samasaha uchyante sarvepi vikalpena. All samasa is optional. You can say Ragyaha Putraha or you can say Rajaputraha. You can say Pitam Ambaram Vesesaha or you can say Pitambaraha. It is your wish. It is not compulsory that a samasa has to be done. Okay. So it is always optional. You either have the option of using a vakya or a samasa. Vakya samasa cha ko bhedaha iti te bhedaha astyeva. Samase ekapadena vivaksha, ekapadasya vivaksha, tatra vishishtaha arthaha bhavati, and it is compact. Samasa is obviously compact, much more compact than a vakya. But you still have the option to always have a vakya or a samasa. Vakyasyapi prayogaha bhavitum arhati, samasta padasyapi prayogaha bhavitum arhati. Sa eva mahavibhasha iti uchyate. Tasya kechana vikalpaha santi. There are some samasas which fall outside the purview of mahavibhasha, where you cannot use the words in the samasa separately. They have to be used together as a samasa. Samasa is easy because you don't have to think of the Indian Vibhakti. Well, as a general case, that might be correct. As in, you don't have to make vibhaktis on each pada. But there are several cases where a samasa does not convey what you want exactly. I mean, it might not. Or there is also a case where your samasa might plainly be wrong. Okay? As I told you yesterday, you just can't join any two words in a samasa, because there are particular rules for samasa. So those are the cases where frequently we, that is these days when we don't have enough prayoga jnana, we end up making the wrong samasas, which will not convey the right meaning. Samasa is easy, good that you have the perception now. It will be good if you can retain the perception after we deal with samasa prakaran. Because once you read the rules, it seems complicated. It is not really complicated as such, but samasa is also not as flexible as we think. We just can't join any word with any word to make a samasa. That is the only problem with samasa. And there are cases where the rupa will change when there is a samasa. So, 80% of the time this is correct. Samasa is easier, but the other 20% you have to be careful. Coming to Nitya Samasa, so there are cases where you cannot use a Vakya. You have to use the Samasta Pada. This is called a Nitya Samasa, where the Samasa is Nitya. This is also not a separate Samasa as it is. Nitya Samasaha Prithak Samasasya Bhedaha Na. There are in Avyayibhava, Avyayibhave, Avyayam Vibhakti Samipa, Ityekam Sutramasti, Ityabhi Chaturbhihi Sutraihi Vihita Samasaha Nitya Samasaha. So in the beginning of the Samasa Prakaranam, there are four sutras by which Panini gives Avyayibhava Samasa. These sutras lie outside the Mahavibhasha, which I told you. When we study the sutras of Avyayibhava Samasa, we will come to know. So these four are called Nitya Samasas. Yataha Tatra Vakyasya Prayogaha Nabhavati Samasta Padasya Iva Prayogaha Bhavet. Anyatnapi Upapada Samasa Adishu Nitya Samasaha. As I said, Kumbham Karoti Kumbhakaraha Ittisti. Kumbhakaraha Iti Samastam Padam Sadhu. Kintu Kumbhasya Karaha Iti Yadi Prayogaha Kriyate Saha Adha Asadhu. There is no Vakya like Kumbhasya Karaha. You have Sitayaha Patihi. This is a correct Vakya. But Kumbhasya Karaha Iti Prayogaha Nabhavati. Kumbhakaraha Iti Samasta Padasya Iva Prayogaha. This is Nitya Samasa. Similarly, when you have Upakrishnam, Krishnasya Upa Iti Samasa Iti Vakyam Nabhavati. There is no Vakya saying Krishnasya Upa. It has to be Upakrishnam. Vakyam Iti Chet Samasa Bhinnam Padam. Krishnasya Samipam Iti Bhinnam Vakyam. Okay, Krishna se samipam is a separate vakya. But with Upa and Krishna, it has to be a samasa. You cannot have a vakya. So these kinds are called as nitya samasaha. Yatra vakyasya prayogaha na bhavati. And atayeva, it is because of this. Nitya samase vakyasya prayogaha na bhavati iti karanadeva. Nitya samase asvapada vigraha bhavati. Hidanimeva adhitam. Svapada vigraha, asvapada vigraha. Yatra samasa ghatakam padam vihaya anyat padam vigraha vakye bhavati saha asvapada vigraha. So nitya samase sarvada asvapada vigraha bhavati. Yataha samasa ghatakaihi padaihi vakyam rasaitum na shakyate. In nitya samasa, you cannot create a vakya out of the words of the samasa. That is why we call it as nitya. The samasa is compulsory. You cannot split the samasa into the component words. Krishnasya samipam upakrishnam. Upakrishnam iti samasaha. Krishna upa ityetabhyam padabhyam vakyam rasaitum na shakyate. Samasta padasyaiva prayogaha. Kumbham karoti iti kumbhakaraha. Tatrapi kumbhakaraha ityasyaiva prayogaha. Natu kumbhakara ityanayoh parayohu bhinnataya prayogaha na bhavati. So nitya samasa is also not a separate samasa. In each samasa, avyayi bhave nitya samasaha bhavati, anitya samasaha bhavati. Tatpurushe nitya samasaha bhavati, anitya samasaha bhavati, ityadi. Asamartha samasaha. Bahuvrihau api bhavati. There are cases where in bahuvrihi also you can have a nitya samasa. So you'll have to look at it need not be a particular this. In all samasas, whenever it is a samyavachaka pada, whenever the samasa pada is intended to indicate a samya or something, there can be nitya samasa. So if there are any other kind nitya samasa in bahuvrihi, let's do. Think. Yeah, there are various bahuvrihi samasa like kumbhakaraha. Itukte kaha arthaha? Yaha kumbham na karoti ityarthe akumbhakaraha iti samasaha na bhavati, because the nai there is associated with kara and not with kumbha. Okay. So na kumbhakaraha akumbhakaraha iti bhavati nai samasaha tat purushaha, it is not bahuvrihi. So kumbham na karoti yaha ityarthe akumbhakaraha iti na bhavati, there is no samarthya. Okay. Nai tat purusha is different, it is directly na kumbhakaraha akumbhakaraha, which is not nitya samasa. Na kumbhakaraha ityapi vaktum shakyate, akumbhakaraha ityapi vaktum shakyate. So in bahuvrihi there are some cases where you have words like upadashaha, dashasya samipe, karyakrame kati janaha asan iti prashne, upadashaha, around 10, iti arthe upadashaha iti padam asti. Dashasya samipe ye santi iti vigraha. Tatrapi upa dasha iti ityanayohu prithak prayogaha na bhavati. Bahuvrihi samasaha upadasha iti padasya eva prayogaha natu dashasya upa iti va anyasya mapriha. So there are nitya samasas in all categories. Tataha asamartha samasaha iti kimapri asti. So I was just telling kumbham nakaroti iti arthe akumbhakara iti samasaha na bhavati iti. Kimartham na bhavati iti cheta samarthyam nasti. Samarthyam nama paraspara anvayaha. Bhavati darshanam rajyaha putrashchorasya dhavati. Rajyaha putraha iti rajaputraha iti na bhavati iti haha api uktam. Kimartham na bhavati rajashabdasya darshanena anvayaha putrashabdasya chorena anvayaha paraspara anvayaha nasti ityataha samasaha na bhavati. एवं कुम्भम न करोति इत्यत्र नयः न इति यदस्ति न करोति इति करोतिना अन्वयः न तु कुम्भेन अतः अकुम्भकारः इति नया कुम्भेन सह नयः अन्वयः न भवति तादृशः समासः नास्ति इति उक्तम् यतः सामर्थ्यं नास्ति सो द जनरल रूल फॉर समास इफ देयर इज नो सामर्थ्य यू कैन नॉट डू अ समास बट देयर आर सम केसेस वेयर अन्वयं विनापि परस्परान्वितयोः सुबन्तयोरेव समासः इति यद्यपि साधारणनियमः तथापि क्वचित् अन्वयाभावेऽपि समासः दृश्यते इवन् वेन् देर् इस् नो परस्परान्वय देर् ईस् अ समासः इन् सर्टन् स्पेसिफिक् प्रयोगः सच् केसेस् आर् काल्ड् एस् असमर्थसमासः असूर्यं पश्याः राजदाराः दिस् इस् वेरि वेरि सिमिलर् टु वाट् इस् ए कुम्भं न करोति So what do you do for kumbham na karoti? You don't do anything. You say kumbham na karoti. That's all. You cannot do a samasa. So it says it is not that you should always do a samasa. Samasa will simply not happen in many cases. Kumbham na karoti. If you say kumbham na karoti, iti vakya seva prayogaha. Tatra samasa na bhavati. But a very very similar case is here. Asuryam pashyaha rajadaraha. कः अर्थः राजदाराः नाम राजस्य पत्नी सूर्यं न पश्यति इत्युक्ते शी इस् सो प्रोटेक्टेड् इन् सैड् शी आल्वेस् रिमेन्स् इन् सैड् अन्तःपुर दट् शी इस् नाट् इवन् सीन् द सन् इत्यर्थे सूर्यं न पश्यन्ति इति असूर्यं पश्याः इति समासः तत्र न इत्यस्य पश्यन्ति इत्यनेन अन्वयः जस्ट् लैक् ऐ वास् सेयिङ्ग् अबौट् न अण्ड् करोति हियर् न इत्यस्य पश्यन्ति इत्यनेन अन्वयः न तु सूर्यशब्देन असूर्यं पश्याः इत्युक्ते कः अर्थः भासते इट् इस् नाट् दट् शी सी समथिङ्ग् अदर् देन् द सूर्य इट् इस् सूर्यं न पश्यति इति नयः सूर्यशब्देन अन्वयः तथापि क्षम्यतां नयः पश्यन्ति इत्यनेन अन्वयः तथापि सूर्य इत्यनेन समासः कृतः अयम् असमर्थसमासः सो दिस् इस् अ वेरि स्पेशल् केस् वेर् इवन् वेर् देर् इस् नो सामर्थ्य असमासः हस् बीन् डन् बट् दिस् डस् नाट् You cannot carry on this logic to other cases. Kumbham na karoti ityasya samasaha na bhavati. There are specific cases where there is pramana. Kathamatra itta bhashya uktam asti. Athva shishta prayoga asti. Tadrishyesha sthaneshu asamartha samasaha angi kriyate. But it is very very limited. So in other cases there is no samasa. If it is such a case, etadrishyesha sthaneshu samasaha na bhavati itteva arthaha. Okay. अकृतकुम्भः इत्यस्य भिन्नः अर्थः न कृतः कुम्भः येन सह इति अकृतकुम्भः न कृतः अकृतः अकृतः कुम्भः येन सह अकृतकुम्भः सो मै पॉइंट इस् कुम्भं न करोति इत्यर्थे अकुम्भकारः इति न भवति दट् इस् आल् यु केन् कन्वे द सेम् मीनिङ्ग् वित् डिफरेण्ट् वर्ड्स् वित् डिफरेण्ट् समासेस् विच् इस् आल् करेक्ट् But if you are giving me a vigraha like kumbham na karoti, there is no samasa there. It has to be a vakya. So in such cases, if by chance there has been some prayoga, you have to include it under asamartha samasas. So the last part we are dealing with in the Pitika is the samasasya arthaha. समस्तपदस्य समासे अर्थः कः इति पृष्टे समासे पदद्वयं भवति पूर्वपदं भवति उत्तरपदं च भवति पूर्वपदस्य पृथक् अर्थः विद्यते उत्तरपदस्य च पृथक् अर्थः विद्यते आल्वेस् द पदास् विल् हेव् इण्डिपेण्डेण्ट् मीनिङ्ग् दे आर् इण्डिपेण्डेण्ट् वर्ड्स् एण्ड् दे केरि डिफरेण्ट् मीनिङ्ग्स् समासे कृते वन्स् यु डू द समास क्वचित् पूर्वपदार्थस्य प्राधान्यं भवति क्वचित् उत्तरपदार्थस्य इन् सम् केसेस् द मीनिङ्ग् आफ् द पूर्वपद विल् बी प्रधान इवन् इन् द समस्तपद इन् सम् केसेस् द मीनिङ्ग् आफ् द उत्तरपद विल् बी प्रधान इन् सम् केसेस् बोत् द मीनिङ्ग् आफ् बोत् वर्ड्स् केरि ईक्वल् प्राधान्य वेरस् इन् सम् केसेस् something else is pradhana, and neither purva padartha nor uttara padartha is pradhana. How do we define this pradhanya is another question. Pradhanam kim iti prashne, yasya padasya arthaha kriyaya anvito bhavati saha pradhanam. That whose meaning is associated with the kriya, that is pradhana. For example, rajyaha putraha ityasti rajaputraha iti samasaha. Rajyaha ityasya kashchana arthaha asti putraha ityasya api arthaha asti. Rajaputraha gachati iti kriyaya saha anvayam kurmaha. Let us take a kriyapada. Now, rajaputraha gachati iti ukte, raja gachati va, putraha gachati va, iti prashna. So, direct association with the kriya, is it for the king or for the son? It is for the son. Putraha eva gachati. Kasya putraha iti ukte, rajyaha putraha iti ucchate. Ataha, gamana kriyaya, putrasya eva anvayaha na to rajyaha. Raja putrapi na gachati. The raja is not associated with the kriya. So we say, in this case, raja putraha ityasya, putra padarthasya pradhanyam. The meaning of putra is more important. Important in the sense it is associated with the kriya than raja. So that is what we mean by pradhanya. This pradhanya is used to identify the different kinds of samasa. So, ujjate prayaha uttara padartha pradhanaha tat purushaha. Generally, so prayaha is very important because this is again a general rule and not a rule which is always true. No rule is 100%, so there are exceptions, but generally, uttara padartha pradhanaha tat purushaha. Tat purusha samase, uttara padasya hartha tat pradhanam bhavati. The meaning of uttara pada is pradhana in tatpurusha samasa. Uttarapadasya arthaha yadi kriyaya anvito bhavati. So the meaning of the uttarapada is associated with the kriya. All such samasas are called tatpurusha samasas. So the example which we saw just now, rajaputraha. So rajaputraha gachati ityukte putra eva gachati na tu raja. Evam rajaputram ahvaya ityukte putraha ahuyate na tu raja. You will not go and call the king if it is said that rajaputra mahvaya. So putrapadasya, putrapadam asya uttarapadam. Uttarapadasya pradhanyam asti. Adaha uttarapadartha pradhanaha tat purushaha. Iti ushyate. Prayena anyapadartha pradhanaha bahuvrihihi. Bahuvrihi samase purvapadasya api pradhanyam na bhavati, uttarapadasya api na bhavati. Tatra anyapadarthasya pradhanyam. Samasa aghatakasya anyasya padasya arthaha yadi kriyaya anvito bhavati saha bahuvrihihi. Kimudaharanam pitam ambaram yasyutaha pitambaraha iti bahuvrihi samasa. Pitambaraha agachati ityukte kaha arthaha agachati agamana kriyaya kasya anvayaha. Is the yellow color coming or is the cloth coming? Pitam ityukte the yellow color. Ambara is a cloth. So is it the color which is coming or the cloth? It is neither. It is a person who is wearing an yellow cloth. Yaha purushaha pitambaram dharati, pitam ambaram dharati saha agachati. Pita padasya arthaha api kriyaya na anveti, ambara padasya arthaha api kriyaya na anveti. Neither of those words are associated with kriya. It is something else. Anyah kashchana padarthaha kriyayataha anneti. Ataha anyapadartha pradhanaha bahuvrihihi. In bahuvrihi samasa, it is anyapadartha which is pradhana. Prayaha ubhayapadartha pradhanaha dvandvaha. In dvandva samasa, purvapadasyapi arthasya pradhanyam bhavati, uttarapadasyapi arthasya. Rama lakshmanau gachataha. Ramascha lakshmanascha rama lakshmanau. So when you are saying Rama Lakshmanau Gatsataha, Ramasyapi Kriyayasaha Anvayahasti, Lakshmanasyapi Kriyayasaha Anvayahasti. Both Rama and Lakshmana are associated with the Kriya. Ataha Ubhaya Padartha Pradhanaha Dvandvaha. Dvandva Samase Ubhayohu Padarthayohu. Athama Sarvesham Padarthanam. As we saw, Dvandva Samasaha Bahunam Api Yugapad Bhavati. Rama Lakshmana Bharata Shatrughnaha Ityukte Sarvesham Padarthanam Kriyataha anvayaha bhavati. अतः सर्वेषां पदानां प्राधान्यं भवति द्वन्द्वसमासे. प्रायः पूर्वपदार्थप्रधानः अव्ययीभावः. On the other hand, avyayibhava samasa, पूर्वपदार्थः प्रधानः. The meaning of the पूर्वपद is important. So, in avyayibhava, it is not possible to show an anvaya with kriya. Okay? Shabdashakti swabhavena, kriyaya saha anvayam pradashetum na shakyate. But still, you can see that it is पूर्वपदार्थः which is pradhana. For example, when you have krishnasya samipam, samipathe upa ityavyayam asti. Upa is an avyaya which is used in the sense of samipa. Upa krishnam iti samasaha. Krishne ityarthe, vibhaktyarthe. When you say adhikarana is the artha, adhikrishnam iti bhavati. Adhi ityasya, adhikaranarthe, adhi iti avyayam. Evam krishnena saha iti adhi samasaha. Saharthe sa iti avyayam upayujyate. Sa krishnam iti. So if you see here, krishna is the same. You have a common component. The meaning is changing because of the Purvapada. Okay. So, Krishnasya Samipamva, Krishneva, Krishnena Sahava iti jnatum, Purvapadasyeva Arthasya Pradhanyam Bhavati. So, in Avyayibhava, it is not possible to show this Pradhanya in association with a Kriya, but still it is the meaning of the Purvapada which is important because that is the modifier. Whenever you have the single noun, it is the avyayartha which modifies the meaning. Ataha, purvapadartha pradhanaha, avyayibhavaha. So these are the general rules we have. Uttarapadartha pradhanastatpurushaha, purvapadartha pradhanaha, avyayibhavaha, ubhayapadartha pradhanaha, dvandvaha, anyapadartha pradhanaha, bahuvrihihi. Iti, autsargikaha, niyamaha. Okay. No, it is just a rule which identifies the samasa. Why the artha is pradhana? It is pradhana. By nature, it is pradhana. So, we are trying to identify which word is pradhana in a samasa. That is all. So, the samasas are different based on which word carries prominence. So, as I told, these are all general rules. Kochir apavadaha api santi. There are many different exceptions. Krishnam atikrantaha, atikrishnaha, iti tatpurusha samasaha. Okay. He who excels Krishna, ityarthe, atikrishnaha iti samasaha. Atra yadyapi tatpurusha samasaha, tathapi purvapadarthasya pradhanyam. Yaha atikrantaha, tasyaiva pradhanyam, natu krishnasya. Ataha, purvapadartha pradhanaha tatpurushaha api kachit drishyate. But as I said, this is an exception. Generally means in 90% of the cases, tatpurusha samase uttarapadasyeva pradhanyam. Evam gauva trayova dvitraha ityadishu ubhayapadartha pradhanaha bahuvrihihi. There is bahuvrihi where they are saying two or three, both of them carry equal prominence. Paraika means general, as in that which is not absolute. Prayena ityukte mostly ityarthaha, in most of the cases. So, prayikaha niyamaha are those which apply in a majority of the cases and not 100%. It is not an absolute rule. It is a rule which applies in the majority of cases. So, that is about the samasartha. So, knowing these many things about samasas, I think we can go into the actual samasa prakarana in the Siddhanta Kaumudi. Siddhanta Kaumudyam, athava Ashtadhyayam, katham paninina samasa prakaranam, ucchate dikshitehi katham vyakhyayate iti pashyamaha from the next class. Ritvaraha padasya vigraha dvau va trayova. Two or three, I mean, it indicates an approximate number. Bahuvrihi samasaha. Bahuvrihi kutra sikta saeva dvitraha itteva bahuvrihi samasaha. It should not be another impression that Bahuvrihi Samasa should always have Yasya Saha. That is again a general rule. Try Kaha Niyamaha. To say that there is that Yasya Saha or whatever. Okay. So, it is Bahuvrihi. येनाक्षर समामनायम अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीः परिभाग्य च वैयाकरणसिद्धान्तकौमुदीयम् विदध्यते।